एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन सहितानाम् दलानाम् विरोधस्य कारणेन अवरुद्धः प्रतिनिधिसभायाः गतदिवसीयोपवेशः अद्य पूर्वाह्नस्य एकादशवादनाय निर्धारितो वर्तते। संसद सचिवालयेन सूचनाम् प्रकाश्य एतद् ज्ञापितमस्ति। प्रतिनिधिसभायाः गतदिवसीयोपवेशस्य प्रारम्भणस्य अनुपदमेव नेकपा एमाले राष्ट्रिय स्वतन्त्र राष्ट्रिय प्रजातन्त्र दलानाम् सांसदाः राष्ट्रपतिना विहितम् नागरिकता विधेयकस्य प्रमाणीकरण माध्यत्य विरोधम् ज्ञापितवन्तः। विपक्षी दलानाम् सांसदा स्वस्व स्थाने उत्थाय समाघोषान् औच्चारयन् तदनु सभामुखः देवराज घिमिरे घण्टावधये उपवेशम् अस्थगयत्। उपवेशस्य स्थगनानन्तरम् सभामुखस्य कार्यकक्षे विहिते विमर्शनेऽपि दलानाम् मध्ये सहमतेर्धारणस्य अभावात् गतदिवसीयोपवेशः स्थगितो भवतीति ज्ञापितम् वर्तते। प्रतिनिधिसभाया गतदिवसीयोपवेशे अर्थमन्त्रिणा डाक्टर प्रकाश शरणमहतेन अस्यैव ज्येष्ठस्य पञ्चदशे दिवसे संसदि प्रस्तुतम् आगामिनः आर्थिक वर्षस्य आय व्ययकम् आधृत्य विमर्शन प्रारम्भणस्य कार्यसूची आसीत्। राष्ट्रियसभायाः गतदिवसीयोपवेशेन प्रतिनिधिसभायाः पूर्व सदस्यायाः पूर्व राज्यमन्त्रिणश्च मीना पाण्डे विधायाः निधनम् प्रति शोकप्रस्तावः पारितीकृतो वर्तते। अष्टोत्तर द्विसहस्रतमे विक्रमवर्षे लब्धजनी पाण्डे नेपाली कांग्रेस दलस्य पक्षतः अष्टचत्वारिंशदुत्तर द्विसहस्रतमे एकपञ्चाशदुत्तर द्विसहस्रतमे चतुस्सप्तत्यधिक द्विसहस्रतमे च विक्रमवर्षेषु प्रतिनिधिसभा सदस्या आसीत्। दिवंगता पाण्डे महिला बाल बालिका समाज कल्याण राज्यमन्त्रिणश्च दायित्वम् निरवहत। अस्यैव ज्येष्ठस्य षोडश दिवसे भूतम् पाण्डे विधाया निधनम् प्रति सभया शोकः व्यक्तो वर्तते। प्रतिपक्षी दलानाम् अवरोधस्य कारणेन एकोनत्रिंशतः कलानाम् पश्चात् उपविष्टे उपवेशे सभायाः अध्यक्ष गणेश प्रसाद तिमल्सिना गतदिवसीयाम् कार्यसूचीम् अपसार्य अद्य दिवा एकवादने उपवेशनत्वेन उपवेशः स्थगितकृतः इति अज्ञापयत्। रासपा नाम्ना राष्ट्रिय स्वतन्त्र दलेन डेंगू रोगस्य नियन्त्रण निरोधनोपचाराणाम् कृते यथासमयम् सावधानता अवलम्बनीयेति उल्लिख्य संघीय संसद सचिवालये ह्य संकल्प प्रस्ताव पंजीकारितो वर्तते। रासपा दलस्य सांसद विराज भक्त श्रेष्ठ डेंगू रोगस्य प्रसरणम् रुद्धुम् एतस्मिन् वर्षे वर्षायाम प्रारम्भात् प्रागेव सावधानताया अवलम्बनम् अभियाच्य प्रतिनिधिसभायाम् संकल्प प्रस्ताव पंजीकारितवान् इति एतद्दलस्य सचेतक पदीय सन्तोष परियार अज्ञापयत्। गतवर्षे नेपालस्य सप्तसप्तत्याम् एव जनपदेषु डेंगू रोग प्रसृत अष्टाविंशत्याम् सहस्रेषु नवोत्तर शते च जनेषु संक्रमणम् पुष्टीभूतम् अष्टात्रिंशत् जना मृताश्चेति उल्लिख्य सांसद श्रेष्ठ एतस्मिन् वर्षे यथासमयम् सावधानता अवलम्बनीयेति अभ्ययाचत। एवमेव प्रस्तावे वर्षाकाल प्रारम्भात् प्रागेव महामारीयाः निरोधनाय प्रतिकार्याय च आवश्यक पूर्व कार्य सञ्चालनार्थम् उपचाराय चिकित्सालयानाम् क्षमतापि विवृद्धये नैज क्षेत्रस्य संस्थागत सामाजिकोत्तर दायित्वस्य अन्यासाम् संघ संस्थानाञ्च स्रोत साधन क्षमताम् च अत्यधिक परिचालनार्थम् च निर्देशन प्रदानम् अभियाचितम् वर्तते। सर्वोच्च न्यायालयेन नागरिकता अधिनियमस्य प्रमाणीकरणम् तत्कालम् न क्रियान्वेतुम् अल्पकालिकान्तरिमादेशः प्रदत्तोऽस्ति। न्यायाधीशस्य डाक्टर मनोज कुमार शर्मणः एकल न्यायपीठेन ह्य अधिनियमम् अमुम् तत्कालम् न क्रियान्वेतुम् अल्पकालिकान्तरिमादेशः प्रदत्तोऽस्ति। वरिष्ठाधिवक्तृद्वयेन सुरेन्द्र भण्डारिणा बालकृष्ण न्यौपाने विधेन च पञ्जीकारितम् आदेशाभियाचन निवेदनम् आधृत्य प्रारम्भिकम् श्रवणम् विदधानेन न्यायालयेन राष्ट्रपतिना विहितम् प्रमाणीकरणम् तत्कालम् न क्रियान्वेतुम् आदिष्टमस्ति। न्यायालयेन पक्षद्वयमाविह्य विमृश्य च अन्तिमादेशः प्रदास्यति। कृत्रिम भूटान देशीय शरणार्थी प्रकरणे आरोपिणाम् कारावासन दण्डन विमर्शनम् प्रारब्धम् वर्तते। अधुनावधि निगृहीतानाम् अष्टादशानाम् जनानाम् प्रकथन ग्रहण क्रमस्य शुक्रवासरे समापनेन सहैव ह्य काष्ठमण्डप जनपद न्यायालयस्य न्यायाधीशस्य प्रेम प्रसाद न्यौपाने विधस्य न्यायपीठे कारावासन दण्डन विमर्शनम् प्रारब्धमस्तीति काष्ठमण्डप जनपद न्यायालयस्य सूचनाधिकारी दीपक दाहाल अज्ञापयत्। दाहालस्य अनुसारेण ह्य निवेदकस्य पक्षतः सर्वकार्याधिवक्त्रा विमर्शनम् प्रारब्धमस्ति। न्यायपीठे न्यायाधीशेन न्यौपाने विधेन निवेदकस्य पक्षतः विमर्शनाय सर्वकार्याधिवक्त्रे दिनत्रयस्य समयः प्रदत्तोऽस्ति। एवमेव प्रतिवादिनः पक्षतः अधिवक्त्रे शरणां दिनानां समयः प्रदत्तोऽस्तीति सूचनाधिकारी दाहालः असूचयत्। जनपद सर्वकार्याधिवक्तुः कार्यालयेन निगृहीतैः अष्टादशभिः जनैः सह पलायितानां त्रिंशतो जनानां विरुद्धे संघटितापराधस्य कृत्रिम प्रपत्रस्य वञ्चनस्य राज्यविरुद्धापराधस्य च विषयान् आरोप्य सप्तविंशतेः कोटीनां पञ्चाशतो लक्षाणां च रूप्यकाणां हानिवित्तम् अभियाच्य च जनपद न्यायालये अस्यैव ज्येष्ठस्य दशमे दिवसे न्यायिक प्रकरणं पञ्जीकारितम् आसीत्। कृषि पशुपक्षी विकास मन्त्रालयेन प्रधानमन्त्रिणा सम्प्रत्येव विहितस्य भारत भ्रमणस्य क्रमे भारत सर्वकारात् नेपालाय मुर्रा जातेः मैषीणां प्रदानस्य सम्बन्धे सहमतिर्धृतेति स्पष्टीकृतं वर्तते। मन्त्रालयोऽसौ अष्टादशाधिकद्विसहस्रतमे ख्रीष्टवर्षे नेपाले सम्पन्नेन नेपाल भारत संयुक्त कृषि प्राविधिक कार्यसमूहस्य उपवेशेन विहितस्य निर्णयस्य विंशत्यधिकद्विसहस्रतम ख्रीष्टवर्षस्य जून मासे भारतस्य पशुपालन मन्त्रालयाय औपचारिकरूपेण सर्वकारात् प्रस्ताव प्रस्तुतेश्च हेतोः पञ्चदश उच्चवंशस्य मुर्रा जातेः मैष सन्ततिं प्रदातुम् भारतीय पक्षतः प्रतिबद्धता प्राप्तेति स्पष्टीकरोति। भारतात् नेपालाय प्रदीयमानेभ्यः पञ्चदशभ्यः मुर्राजाते मैषेभ्योऽपि न्यूनतोऽपि एकलक्षे मैषिषु कृत्रिम गर्भाधानं कारयित्वा मैष वंश सुधारस्य माध्यमेन मैषीणां दुग्धस्य उत्पादने उल्लेख्य वृद्धिश्च विधास्यते इति मन्त्रालयोऽसौ ज्ञापयति। पाल्पा जनपदस्य रैनादेवी छहरा ग्रामपालिकायाः अष्टवडा क्षेत्रस्य सत्यवती स्थानवर्तिनी केवले डाँडास्थाने बोलेरो जीपयानस्य दुर्घटनायां जनत्रयं मृतं वर्तते। रूपन्देही जनपदस्य सालझण्डी स्थानात् अर्घाखाँची स्थानं प्रति प्रस्थीयमानं बोलेरो जीपयानं ह्यः सायं दुर्घटितं सद द्वादश जनाः आहताः सन्तीति बल्डेङगढ़ी स्थानीय प्रहरी कार्यालयेन ज्ञापितं वर्तते। मृतकेषु महिलाद्वयम् एकः पुरूषश्च वर्तन्ते। मृतानां जनानां सत्यापनं सम्भूतं नास्तीति प्रहरिणा ज्ञापितं वर्तते। दुर्घटनायाम् आहताः जनाः उपचाराय बुटवल स्थानं प्रेषिताः सन्तीति पाल्पा जनपद प्रहरी कार्यालयस्य प्रहरिणा एव उपरीक्षकः वीरेन्द्र थापा अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन त्रिपञ्चाशदुत्तर सप्तशतं स्थानीय स्तराः देशस्य सर्वे चिकित्सालयाश्च समग्रशय्यानां दश प्रतिशतं पृथक्कृत्य विपन्नानाम् असहायानाम् अनाथानां च रोगिणानां निःशुल्कम् उपचारं कारयितुं निर्दिष्टाः सन्ति। मन्त्रालयस्य उपसचिव एकदेव खनालः त्रिपञ्चाशदुत्तर सप्तशत तमेव स्थानीय स्तरान् सर्वान् सर्वकारीय सामुदायिक नैज चिकित्सालयाञ्च ह्य पृथक पृथक पत्राचारं विधाय समग्र शय्यानां दश प्रतिशतं शय्याः विपन्नानाम् असहायानाम् अनाथानां च रोगिणानां कृते पृथक्कृत्य निःशुल्कम् उपचारस्य व्यवस्थां कारयितुं निरदिशत्। गण्डकी प्रदेश सर्वकारेण आगामिनः आर्थिक वर्षस्य कृते नीति कार्यक्रमाः प्रस्तुताः सन्ति। प्रदेशसभाया ह्य उपविष्टे उपवेशे प्रदेश प्रमुख पृथ्वीमान गुरूङ सर्वकारस्य नीति कार्यक्रमान् प्रास्तोत। प्रस्तुत नीति कार्यक्रमेषु विशेषतः प्रदेशे यातायात व्यवस्था कार्यालयानां सेवा प्रवाह प्रविधि मैत्री विधास्यते उत्थान प्रणालीतः पेयजलं प्रदास्यते एतत् कार्याय आवश्यके विद्युत् शुल्के अनुदान सहयोगो प्रदास्यते इति च उल्लिखितं वर्तते। इति समाचारः।